एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाली कांग्रेस दलस्य चतुर्दश महाधिवेशनम् ह्यः काष्ठमण्डपे प्रारब्धमस्ति। महाधिवेशनम् उद्घाटयन् प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देउवा महाधिवेशनेन देशम् भयमुक्तम् विधाय लोकतान्त्रिक मूल्य मान्यतायाम् आदृतस्य समाजस्य निर्माणाय क्षमम् नेतृत्वम् चेष्यते इति विश्वासम् व्यक्तवान्। प्रधानमन्त्री देउवा अवोचत् देशे लोकतन्त्रस्य स्थापनायै भूयो भूयो युद्धस्य नेपाली कांग्रेस दलस्य स्कन्धे, अतपरं देशे कदापि निरंकुश सर्वकारस्य निर्माणस्य सम्भावनायाः अभावस्य सुनिश्चिततायाः दायित्वं वर्तते। महाधिवेशनस्य उद्घाटनावसरे नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः अभाषत, राजनैतिक दलानाम् अभ्यन्तरे लोकतान्त्रिका चरणस्य विकासस्य अभावेन एतस्य प्रतिकूल प्रभावः राज्य सञ्चालनेऽपि दृष्टोऽस्ति। कार्यक्रमे पूर्व प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली, राष्ट्रियता लोकतन्त्र देश विकास सदृशेष् संयुक्त विषयेष् सर्वैः राजनीतिक दलैः सह सहकार्याय स्वस्य नेकपा एमाले दलम् तत्परम् अस्तीति अगदत। तदवसरे पूर्व प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्डः अवोचत् देशाय गतिम् प्रदातुम् राजनीतिक दलैः पारस्परिक सहकार्येण एकतया च अग्रे वर्धनीयम्। अध्यक्ष प्रचण्डः राजनीतिक दलानाम् अभ्यन्तरे जायमानाय प्रतिस्पर्धायाः अभ्यन्तरेऽपि एकताम् अन्विष्य अग्रे वर्धनस्य विकल्पो नास्तीति धारणाम् व्यक्तवान्। समारोहे पूर्व प्रधानमन्त्री एकीकृत समाजवादी दलस्य अध्यक्षश्च माधव कुमार नेपालः भाषत, भ्रष्टाचारेण राज्य सत्तायाः दुरूपयोगेन च राजनीतौ विकृतिः प्रविष्टो भवतीति हेतो एतस्य अन्ताय सर्वैः राजनीतिक दलैः दायित्ववायवी भाव्यम्। जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादवः अवोचत्, शासकीय पद्धतौ समावेशिन्यां विहितायां सत्यमेव लोकतन्त्रं सुदृढं भविष्यति, देशेन विकासस्य गतिश्च प्राप्यते। कार्यक्रमे लोकतान्त्रिक समाजवादी दलस्य अध्यक्ष महन्त ठाकुरः अवदत्, मधेसक्षेत्रस्य याचनायाः विषयाणां च श्रवणत्वेन संविधानं संशोधनीयम्। राष्ट्रिय प्रजातन्त्र पार्टी राप्रपा दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन अवोचत्, संसद न्यायालय सदृशेषु राज्यस्य महत्वपूर्ण निकायेषु विभिन्नाः विकृतयः उत्पन्नाः सन्तीति हेतोः विकृतीनाम् अन्ताय राजनीतिक दलैः दलानां नेतृभिश्च जनतायाः विश्वासस्य अर्जनाय बलं देयम्। अत्रान्तरे नेपाली कांग्रेस दलस्य चतुर्दश महाधिवेशनस्य आन्तरसत्रम् भ्रिकुटी मण्डपस्य सभावने ह्य रात्रौ आसन्न नववादने प्रारब्धमस्ति। आन्तरसत्रे महामन्त्रिण प्रतिवेदनम्, केन्द्रीय नित्यानुसन्धान प्रशिक्षण प्रतिष्ठानस्य प्रतिवेदनम्, लेखा समितेः प्रतिवेदनञ्च प्रस्तुत्यमानानि सन्तीति दल प्रवक्ता विश्वप्रकाश शर्मा ज्ञापयति। नेपाली कांग्रेस दलस्य चतुर्दश महाधिवेशनस्य अन्तर्गतम् अद्य केन्द्रीय कार्यकारी समितेः विभिन्नानां पदानां कृते प्रत्याशितायाः पञ्जीकरणस्य, तदुपरि सत्व विरोध ज्ञापनस्य, प्रत्याशितायाः अनुगमनस्य च कार्यक्रमः निर्धारितो वर्तते। नेकपा माओवादी केन्द्रस्य प्रदेश सम्मेलनम् अद्य प्रारभते। प्रदेश सम्मेलनस्य अद्य दिवा एकवादने दलाध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन श्रव्य दृश्य प्रविधेर माध्यमेन उद्घाटनस्य कार्यक्रमो स्थिति माओवादी केन्द्रस्य कार्यालयस्य मुख्य सचिव श्रीराम ढकालः ज्ञापयत्। प्रथम प्रदेशस्य विराटनगरे, द्वितीय प्रदेशस्य जनकपुरे, बागमती प्रदेशस्य काष्ठमण्डपे, गण्डकी प्रदेशस्य पोखरास्थाने, लुम्बिन्या भालवङ स्थाने, कर्णाली प्रदेशस्य सुर्खेत स्थाने, सुदूरपश्चिम प्रदेशस्य धनगढ़ी स्थाने च सम्मेलन आयोज्यमानम् वर्तते। माओवादी केन्द्रस्य राष्ट्रिय सम्मेलनम् आगामिनः पौषमासस्य एकादश दिवसात् त्रयोदश दिवसम् यावत् राजधान्यम् काष्ठमण्डपे भविता। प्रधानमन्त्री शेरबहादुर देउवा निगदति, शान्ति प्रक्रियायाः अवशिष्ट कार्याणि सम्पाद्य अन्तर्राष्ट्रिय प्रतिबद्धताया अनुसारेण मानवाधिकार मैत्रिणः विधेयर निर्माणे सर्वकारः संलग्नो वर्तते। त्रिसप्ततितम अन्तर्राष्ट्रिय मानवाधिकार दिवसस्य अवसरे राष्ट्रिय मानवाधिकारायोगेन ह्यः ललितपुरे आयोजिते कार्यक्रमे प्रधानमन्त्री देउवा द्वन्द्व पीडितेभ्यः पीडितानां परिवारेभ्यश्च सर्वकारेण शीघ्रमेव न्याय प्रदास्यते इति प्रतिबद्धतां व्यक्तवान्। कार्यक्रमे राष्ट्रिय मानवाधिकार कारायोगस्य अध्यक्ष तप बहादुर मगर, सर्वकाराय परामृष्टानां मानवाधिकार हननस्य न्यायिक प्रकरणानां क्रियान्वयनाय अनुरुणत। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री प्रेम आले कथयति, सर्वेषां जातिनां समुदायानां च पर्वणा संस्कृत्या च समाजम् एकताबद्धं विधातुं महत्वपूर्ण भूमिका निर्विडा अस्ति। कार्यक्रमे काष्ठमण्डपे आयोजिते द्वितीये तामाङ जातीय मौलिक सेलो संगीत महोत्सवे मन्त्रालय अगथयत सर्वकार सर्वासाम जातिनाम परम्पराया सह भाषा संस्कृतिनाम संरक्षणाय सर्वकार प्रतिबद्धो वर्तते। श्रम वृत्ति सामाजिक सुरक्षा मन्त्री कृष्ण कुमार श्रेष्ठ वैदेशिक वृत्तिपार्जनस्य क्रमे प्रवञ्चनस्य अवस्थायाः अन्ताय प्रतिबद्धताम् व्यनक्ति। तनहु जनपदे प्रथमं दमौली पाटन सांस्कृतिक पर्यटन महोत्सवम् ह्यः उद्घाटयन् मन्त्री श्रेष्ठ अगदत् नेपालात् प्रतिशतं 97 युवा युवतयः शिल्पेन विनैव वैदेशिक वृत्तिपार्जनाय गच्छन्ति इति कारणात् समस्या सृष्टा वर्तते। पूर्व प्रधानमन्त्री जनता समाजवादी दलस्य संघीय परिषद अध्यक्ष बाबुराम भट्टराई निगदति सत्ता सहकारी दलानां घटबन्धनम् निर्वाचनम् यावत् स्थास्यति। तनहु जनपदस्य शुक्ला गण्डकी नगरपालिकाया घारीस्थानम् प्राप्तो बाबुराम भट्टराई आवासत प्रतिगमनम् पराजेतुम् दल घटबन्धनम् निर्वाचनम् यावत् स्थास्यति। स्वास्थ्य मन्त्री विरोध खतिवडा कथयति सर्वकारस्य प्रभावकारिण व्यवस्थापनेन कोरोना प्रतिरोधी टीकाकरण अनेन नागरिकाः वञ्चिता न भविष्यन्ति। पाल्पा जनपदे आयोजिते कार्यक्रमे मन्त्री खतिवडा अगथयत् टीकाकरणस्य मात्राद्वय धृतेभ्यः नागरिकेभ्यः कोरोना रोग प्रतिरोधी क्षमतावर्धकं टीकाकरणं शीघ्रं प्रदास्यते। कार्यक्रमे सर्वकारेण सर्वेषां स्थानीयस्तराणां चिकित्सालयानां व्यवस्थापनाय 25 शय्यायुतस्य चिकित्सालयस्य निर्माणाय वित्तं विनियोजितम् अस्ति मन्त्री खतिवडा अज्ञापयत्। अत्रान्तरे ह्य आराष्टं 129 च जना कोरोना विषाणुना संक्रान्ता सन्ति। आराष्टं ह्य अतिरिक्ता 137 च जना कोरोना विषाणो संक्रमणात् मुक्ता वर्तन्ते। ह्यस्तनावधि संक्रमण मुक्तानां जनानां अनुपात प्रतिशतं 10.97% ती स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। कोरोना विषाण संक्रमणेन ह्य अतिरिक्ता 3 जना मृता। ह्य आराष्टं 129,000 123 जना कोरोना विरोधी टीकाकरणं आहितवन्त इति मन्त्रालयोऽसौ सूचयति। इति समाचारः।